ओम वासुदेव उवाच ततः स प्रयशो भूत्वा मम तात युधिष्ठिर प्राञ्जलिः प्राह विप्रश्रीर्नाम सङ्ग्रहमादितः उपमन्युरुवाच ब्रह्म प्रोक्तैर्ऋषि प्रोक्तैर्वेद वेदाङ्ग सम्भवैः सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थ साधकैः ऋषिणा तण्डिना भक्त्या कृतैर्वेद कृतात्मना यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः प्रवरम् प्रथमम् स्वर्ग्यम् सर्वभूतहितम् शुभम् श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः सत्यैस्तत्परमम् ब्रह्म ब्रह्म प्रोक्तम् सनातनम् वक्ष्ये यदुकुलश्रेष्ठः शृणुष्यावहितो मम वरयैनम् भवम् देवम् भक्तस्त्वम् परमेश्वरम् तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् न शक्यम् विस्तरात् कृत्स्नम् वक्तुम् सर्वस्य केनचित् युक्तेनापि विभूतीनामपि वर्षशतैरपि यस्यादिर्मध्यमन्तम् च सुरैरपि न गम्यते कस्तस्य शक्नुयाद्वक्तुम् गुणान् कास्नेव माधव किम् तु देवस्य महतः सङ्क्षिप्तार्थपदाक्षरम् शक्ति तच्चरितम् वक्ष्ये प्रसादात्तस्य धीमतः अप्राप्य तु ततोऽनुज्ञाम् न शक्यस्तोतुमीश्वरः यदा तेनाभ्यनुज्ञातस्तुतो वै स तदा मया अनादिनिधनम् स्याहम् जगद्यो निर्महात्मनः नाम्नाम् कञ्चित् समुद्देशम् वक्ष्याम्यव्यक्तयोनिनः वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः शृणु नाम्नाम् च यम् कृष्ण यदुक्तम् पद्मयोनिना दशनाम सहस्राणि यान्याः प्रपितामहः तानि निर्मथ्य मनसा दध्नो घृतमिमोद्धृतम् गिरिः सारम् यथा हेम पुष्पसारम् यथा मधु घृतात्सारम् यथा मण्डस्तथैत्सारमुद्धृतम् सर्वपापापहमिदम् चतुर्वेदसमन्वितम् प्रयत्नेनाधिगन्तव्यम् धार्यम् च प्रयतात्मना माङ्गल्यम् पौष्टिकम् चैव रक्षोघ्नम् पावनम् महत् इदम् भक्ताय दातव्यम् श्रद्धधानास्तिकाय च नाश्रद्धधानरूपाय नास्तिकायाजितात्मने यश्चाभ्यसूयते देवम् कारणात्मानमीश्वरम् स कृष्णनरकम् याति सह पूर्वैः सहात्मजैः इदम् ध्यानमिदम् योगमिदम् ध्येयमनुत्तमम् इदम् जप्यमिदम् ज्ञानम् रहस्यमिदमुत्तमम् यम् ज्ञात्वा अन्तकालेऽपि गच्छेत परमाम् गतिम् पवित्रम् मङ्गलम् मेध्यम् कल्याणमिदमुत्तमम् इदम् ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः सर्वस्तवानाम् राजत्वे दिव्यानाम् समकल्पयत् तदा प्रभृति चैवायमीश्वरस्य महात्मनः स्तवराज इति ख्यातो जगत्यमरपूजितः ब्रह्मलोकादयम् स्वर्गे स्तवराजोऽवतारितः यतस्तण्डिः पुरा प्राप तेन तण्डीकृतोऽभवत् स्वर्गाच्चैवात्र भूर्लोकम् तण्डिनाह्यवतारितः सर्वमङ्गलमाङ्गल्यम् सर्वपापप्रणाशनम् निगदिष्ये महाबाहोस्तवानामुत्तमम् स्तवम् ब्रह्मणामपि यद्ब्रह्म परायणामपि यत्परम् तेजसामपि यत्तेजस्तपसामपि यत्तपः शान्तिनामपि यश्शान्तिर्द्युतीनामपि या द्युतिः दान्तानामपि यो दान्तो धीमतामपि या च धीः देवानामपि यो देव ऋषीणामपि यस्तृषिः यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि योगिनामपि यो योगी कारणानां च कारणम् यतो लोकाः सम्भवन्ति न भवन्ति अथ पुनः सर्वभूतात्मभूतस्य हरस्यामि ततेजसः अष्टोत्तरसहस्रम् तु नाम्नाम् सर्वस्य मे शृणु यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामान्नवाप्स्यसि ऋष्यादिन्यासः अस्य श्रीसदाशिवसहस्रनामस्तोत्रमन्त्रस्य नारायण ऋषिः श्रीसदाशिवो देवता अनुष्टुप् छन्दः सदाशिवो बीजम् गौरीशक्तिः श्रीसदाशिवप्रीत्यर्थम् जपे विनियोगः ध्यानम् ध्याये नित्यम् महेशम् रजतगिरिनिभम् चारुचन्द्रावतंसम् रत्नाकल्पोज्ज्वलाङ्गम् परशुमृगवराभीतिहस्तम् प्रसन्नम् पद्मासीनम् समम् तात्स्तुतममरगणैर्व्याघ्रकृत्तिम् वसानम् विश्वाद्यम् विश्ववन्द्यम् निखिलभयहरम् पञ्चवक्त्रम् त्रिनेत्रम् श्रीशिवसहस्रनामस्तोत्रम् स्थिरस्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः सर्वात्मा सर्वविज्ञातः सर्वः सर्वकरो भवः जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वभावनः हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः श्मशानवासी भगवान् खचरो गोचरोर्दनः अभिवाद्यो महाकर्मा तपस्वी भूतभावनः उन्मत्तवेश प्रच्छन्नः सर्वलोकप्रजापतिः महारूपो महाकायो वृषरूपो महायशाः महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः पवित्रम् च महांश्चैव नियमो नियमाश्रितः सर्वकर्मा स्वयम्भूत आदिरादिकरो निधिः सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणो नघः महातपा घोरतपा अदिनो दीनसाधकः संवत्सरकरो मन्त्रप्रमाणम् परमम् तपः योगी योज्यो महाबीजो महारेता महाबलः सुवर्णरेथा सर्वज्ञः सुबीजो बीजवाहनः दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः विश्वरूपः स्वयम् श्रेष्ठो बलवीरो बलोगणः गणकर्ता गणपतिर्दिग्वासाः कामयेव च मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः कमण्डलुधरो धन्वी बाणहस्तकपालवान् अशनीशतघ्नी खड्गी पट्टिशी चायुधी महान् स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभस्तलः त्रिजटी चीरवासाश्च रुद्रसेनापतिर्विभुः अहश्चरो नक्तञ्चरस्तिग्ममन्युः सुवर्चसः गजः दैत्यः कालो लोकधाता गुणाकरः सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः कालयोगी महानाथः सर्वकामश्चतुष्पतः निशाचरप्रेतचारी भूतचारी महेश्वरः बहुभूतो बहुधरस्वर्भानुरमितो गतिः नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः घोरो महातपःपाशो नित्यो गिरिरुहो नभः सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः अधर्षणो धर्षणात्मा यज्ञः कामनाशकः दक्षयागापहारी च सुसहो मध्यमस्तथा तेजोपहारी बलः मुदितोऽर्थोजितो वरः गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः सुतीक्ष्णदशनश्चैव महाकायो महाननः विश्वक्षेनो हरिर्यज्ञः संयुगापीडवाहनः तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः हुताशनसहायश्च प्रशान्तात्मा हुताशनः उग्रतेजा महातेजा जन्यो विजयकालवित् ज्योतिषामयनम् सिद्धिः सर्वविग्रहयेव च शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली वेणवी पणवी ताली खली कालकण्टकटिः नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोगमः प्रजागतिर्विश्वबाहुर्विभागः सर्वगोमुखः विमोचनः सुसरणो हिरण्यकवचोद्भवः मेढजो बलचारी च महीचारी श्रुतस्थता सर्वतूर्यनिनादी च सर्वातोध्यपरिग्रहः व्यालरूपो गुहावासी गुहो माली तरङ्गवित् त्रिदशस्त्रिकालधृत कर्म सर्वबन्धविमोचनः बन्धनस्त्व सुरेन्द्राणाम् युधिशत्रुविनाशनः साङ्ख्यप्रसाद दुर्वासः सर्वसाधुनिषेवितः प्रस्कन्दनो विभागज्ञो तुल्यो यज्ञविभागवित् सर्ववासः सर्वचारी दुर्वासावासवोमरः हैमो हेमकरो यज्ञः सर्वधारीधरोत्तमः लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः मुख्यो मुख्यश्च देहश्च काहलिः सर्वकामदः सर्वकालप्रसादश्च सुबलो बलरूपधृत् सर्वकामवरश्चैव सर्वधः सर्वतोमुखः आकाशनिर्विरूपश्च निपाती ह्यवशः खगः रौद्ररूपोऽंशुरादित्यो बहुरश्मिः सुवर्चसि वसुवेगो महावेगो मनोवेगो निशाचरः सर्ववासी श्रियावासी उपदेशकरोकरः मुनिरात्मनिरालोकः सम्भग्नश्च सहस्रदः पक्षी च पक्षरूपश्च अतिदीप्तो विशाम्पतिः उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः महासेनो विशाखश्च षष्टिभागो गवाम्पतिः वज्रहस्तश्च विष्कम्भी चमुस्तम्भन एव च वृत्तावृत्तकरस्थालो मधुर्मधुकलोचनः वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ईशान ईश्वरः कालो निशाचारी पिनाकवान् निमित्तस्थो निमित्तम् च नन्दिर्नन्दकरो हरिः नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः भगहारी निहन्ता च कालो ब्रह्मा पितामहः चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः इतिहासः सकल्पश्च गौतमोऽथ निशाकरः दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः अक्षरम् परमम् ब्रह्म बलवक्षक्र एव च नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः बहुप्रसादः सुस्वप्नो दर्पणो तत्त्वमित्रजित् वेदकारो मन्त्रकारो विद्वान्समरमर्दनः महामेघनिवासी च महाघोरो वशीकरः अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः वृषणः शङ्करो नित्यम् वर्चस्वी धूमकेतनः नीलस्थताङ्गलुब्धश्च शोभनो निरवग्रहः स्वस्तिदः स्वस्ति भावश्च भागी भागकरो लघुः उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः कृष्णवर्णः सुवर्णश्च इन्द्रियम् सर्वदेहिनाम् महापादो महाहस्तो महाकायो महायशाः महामूर्धा महामात्रो महानेत्रो निशालयः महान्तको महाकर्णो महोष्टश्च महाहनुः महानासो महाकम्बुर्महाग्रीवः श्मशानभाक् महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः लम्बनो लम्भितोष्टश्च महामायः पयोनिधिः महादन्तो महादंष्ट्रो महाजिह्वो महामुखः महानखो महारोमा महाकेशो महाजटः प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः गण्डलीमेरुधामा च देवाधिपतिरेव च अथर्वशीर्षः सामास्य ऋक्सहस्रामिते क्षणः यजुःपादभुजो गुह्यप्रकाशो जङ्गमस्तथा अमोघाथ प्रसादश्च अभिगम्य सुदर्शनः उपकारप्रियः सर्वकनकः काञ्चनच्छविः नाभिर्नन्दिकरो भावः पुष्करस्तपथि स्थिरः द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः नक्तम् कलिश्च कालश्च मकरः कालपूजितः सगणो गणकारश्च भूतवाहनसारथिः भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः लोकपालस्तथा लोको महात्मा सर्वपूजितः शुक्लस्त्रिशुक्लसम्पन्नः शुचिर्भूतनिषेवितः आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः कपिलः कपिशः शुक्ल आयुश्चैव परोपरः गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः परश्वधायुधो देवो अनुकारी सुबान्धवः तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलो नलः बन्धनो बन्धकर्ता च सुबन्धनविमोचनः स यज्ञारिः सकामारिर्महादंष्ट्रो महायुधः बहुधा निन्दितः शर्वः शङ्करः शङ्करो धनः अमरेशो महादेवो विश्वदेवः सुरारिः अहिर्बुद्ध्योऽनिलाभश्च चेकितानो हविस्तथा अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः धन्वन्तरिर्धूमकेतुस्कन्दो वैश्रवणस्तथा धाता शक्रश्च विष्णुश्च मित्रस्त्वश्वाध्रुवोधरः प्रभावः सर्वगो वायुरर्यमा सविता रविः उशंगुश्च विधाता च मान्धाता भूतभावनः विभुर्वर्णविभावी च सर्वकामगुणावहः पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलो नलः बलवांशोपशान्तश्च पुराणःपुण्यचुञ्चुरी कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् कैलासगिरिवासी च हिमवद्गिरिसंश्रयः कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः सारग्रीवो महाजत्रुरलोलश्च महौषधः सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः सिंहनादः सिंहदंश्रः सिंहगः सिंहवाहनः प्रभावात्मा जगत्कालस्थलो लोकहितस्तरुः सारङ्गो नवचक्राङ्गः केतुमाली सभावनः भूतालयो भूतपतिरहोरात्रमनिन्दितः वाहिता सर्वभूतानाम् निलयश्च विभुर्भवः अमोघः संयतो ह्यश्वो भोजनप्राणधारणः धृतिमान्मतिमान् दक्षः सत्कृतश्च युगाधिपः गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम् प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः गान्धारश्च सुवासश्च तपः सक्तो रतिर्नरः महागीतो महानृत्यो ह्यप्सरो गणसेवितः महाकेतुर्महाधातुर्नैकसानुचरश्चलः आवेदनीय आदेशः सर्वगन्धसुखावहः तोरणस्तारणो वाधः परिधीपतिखेचरः संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः नित्य आत्मसहायश्च देवासुरपतिपतिः युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः अक्षश्च रथयोगी च सर्वयोगी महाबलः समाम्नायो समाम्नायस्तीर्थदेवो महारथः निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्कशः रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित् मूलम् विशालो ह्यमृतो व्यक्ता व्यक्तस्तपो निधिः आरोहणोऽधिरोहश्च शीलधारी महायशाः सेनाकल्पो महाकल्पो योगो युगकरो हरिः युगरूपो महारूपो महानागहनो वधः न्यायनिर्वपणः पारः पण्डितो ह्यचलोपमः बहुमालो महामालः शशीहरसुलोचनः विस्तारो लवणः कूपस्त्रियुगः सफलोदयः त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः निवेदनः सुखाजातः सुगन्धारो महाधनुः गन्धपाली च भगवानुत्थानः सर्वकर्मणाम् मन्थानो बहुलो वायुः सकलः सर्वलोचनः तलस्तालः करस्थाली ऊर्ध्वः संहननो महान् छत्रम् सुच्छत्रो विख्यातो लोकः सर्वाश्रयक्रमः मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः हर्यक्षक्ककुभो वज्रीशतजिह्वः सहस्रपात् सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत् पवित्रम् त्रिककुन्मन्त्रः कनिष्ठकृष्णपिङ्गलः ब्रह्मदण्ड विनिर्माता शतघ्नीपाश शक्तिमान् पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः गवस्तिर्ब्रह्म कृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः अनन्तरूपो नैकात्मा तिग्मतेजः स्वयम्भुवः ऊर्ध्वगात्मा पशुपतिर्वातरह्मा मनोजवः चन्दनी पद्मनालाभः सुरभ्युत्तरणो नरः कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत् उमापतिरुमाकान्तो जाह्नवी धृदुमाधवः वरो वराहो वरदो वरेण्यः सुमहास्वनः महाप्रसादो दमनः शत्रुःश्वेतपिङ्गलः पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् सर्वपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः साध्यशिर्वसुरादित्यो विवस्वान् सवितामृतः व्यासः सर्गः सुसङ्क्षेपो विस्तरः पर्ययो नरः ऋतुः संवत्सरो मासः पक्षः सङ्ख्या समापनः कला काष्ठालवा मात्रा मुहूर्ताः क्षपाक्षणाः विश्वक्षेत्रम् प्रजाबीजम् लिङ्गमाद्यस्तु निर्गमः सदसद्व्यक्तमव्यक्तम् पिता माता पितामहः स्वर्गद्वारम् प्रजाद्वारम् मोक्षद्वारम् त्रिविष्टपम् निर्वाणम् ह्लादनश्चैव ब्रह्मलोकः परा गतिः देवासुरविनिर्माता देवासुरपरायणः देवासुरगुरुर्देवो देवासुरनमस्कृतः देवासुरमहामात्रो देवासुरगणाश्रयः देवासुरगणाध्यक्षो देवासुरगणाग्रणीः देवातिदेवो देवर्षिर्देवासुरवरप्रदः देवासुरेश्वरो विश्वो देवासुरमहेश्वरः सर्वदेवमयोचिन्त्यो देवतात्मा आत्मसम्भवः उद्भित्त्रिविक्रमो वैद्यो विरजो निरजोमरः ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः विबुधोऽग्रवरः सूक्ष्मः सर्वदेवस्तपोमयः सुयुक्तः शोभनो वज्री प्रासानाम् प्रभवो व्ययः गुहकान्तो निजः सर्गः पवित्रम् सर्वपावनः शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः अभिरामः सुरगणो विरामः सर्वसाधनः ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः स्थावराणाम् पतिश्चैव नियमेन्द्रियवर्धनः सिद्धार्थः सिद्धभूतार्थोच्चिन्त्य सत्यव्रतः शुचिः वृताधिपः परम् ब्रह्म भक्तानाम् परमागतिः विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् इति श्रीशिवसहस्रनामस्तोत्रम् सम्पूर्णम्।